Next, we will learn text 27 from chapter 7, Knowledge of the Absolute, from Bhagavad Gita as it is. Please repeat after me 3 times. Icha Dvesha.
Icha Dvesha. Icha Dvesha. Icha Dvesha.
Samuttena.
Samuttena. Samuttena. Samuttena.
Dvandva Mohena.
Dvandva Mohena. Dvandva Mohena. Dvandva Mohena.
Bharata.
Bharata. Bharata. Bharata.
Sarva Bhutani.
Sarva Bhutani. Sarva Bhutani. Sarva Bhutani.
Sammoham.
Sammoham. Sammoham. Sammoham.
Sarge Yanti.
Sarge Yanti. Sarge Yanti. Sarge Yanti.
Parantapa.
Parantapa. Parantapa. Parantapa.
Any doubt in pronunciation?
No.
Okay, please repeat after me 3 times each line. इच्छा द्वेषा समुत्थेना
इच्छा द्वेषा समुत्थेना इच्छा द्वेषा समुत्थेना इच्छा द्वेषा समुत्थेना
द्वंद्व मोहेन भारत
द्वंद्व मोहेन भारत द्वंद्व मोहेन भारत द्वंद्व मोहेन भारत
सर्वभूतानि सम्मोहम्
सर्वभूतानि सम्मोहम् सर्वभूतानि सम्मोहम् सर्वभूतानि सम्मोहम्
सर्गे यान्ति परन्तप
सर्गे यान्ति परन्तप सर्गे यान्ति परन्तप सर्गे यान्ति परन्तप
I'll recite the whole verse. Icha dvesha samuttena dvandva mohena bharata sarva bhutani sammoham sarge yanti parantapa.
Icha dvesha samuttena dvandva mohena bharata sarva bhutani sammoham sarge yanti parantapa.
Translation by His Divine Grace A.C. Bhaktivedanta Swami Srila Prabhupada. O Sign of Bharata, O Conqueror of the Foe, all living entities are born in delusion, bewildered by dualities arising from desire and hate.